एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली आगामिनः मासत्रयस्य अभ्यन्तरे विकासस्य लहर्याः आनयनत्वेन नूतन कीर्तेः स्थापनत्वेन च वस्तुगत योजनाः प्रस्तुतुम् निर्दिशति। मन्त्रालयानां वार्षिक प्रगति समीक्षायां वर्तमान आर्थिक वर्षस्य आयव्ययक कार्यक्रमाणां क्रियान्वयनेन सहैव सर्वकारस्य शतदिनानां मुख्य कार्याणां विषये ह्य सीमाप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालय प्रस्तुतेः पश्चात् उपवेशनं सम्बोधयन् प्रधानमन्त्री ओली देशजनतयोः कृते विधातव्यानां विधीयमानानां च कार्याणां विषयम् अतिरिक्तं व्यवस्थितं वस्तुगतं च विधातुं निरदिशत। प्रधानमन्त्री ओली विकासव्ययः शतप्रतिशतं कर्तुं शक्यते तर्हि अर्थतन्त्रं गतिशीलं विधातुं शक्यते इति धारणां व्यक्तवान्। प्रधानमन्त्री ओली मासत्रये इतिहासस्य अपेक्षया अधिक परिश्रमेण कार्यं कृत्वा प्रदर्शनस्य बेला प्राप्तोस्थिति उदयरयत। प्रधानमन्त्री ओली मन्त्रालयेषु परस्परं समन्वयं विधातुं सूचना प्रविधि क्षेत्राय प्राथमिकतां प्रदातुं निर्यातस्य अपेक्षया उद्यमशीलताय वृत्त्युपार्जनानां सर्जनाय च बलं प्रदातुं च अन्वरुणात। प्रधानमन्त्री ओली प्रधानमन्त्री वृत्त्युपार्जन कार्यक्रमं जनतायै वृत्त्युपार्जन कार्यक्रमस्य रूपेण रूपान्तरयितुं मातृ शिशु स्वास्थ्ययोः सुमधुर सहस्रदिनानां मान्यतायै ध्यानं प्रदातुं समग्रतः जनानां आयस्रोतस क्षेत्रं वर्धयितुं च सम्बद्ध मन्त्रिणां सचिवानां च ध्यानाकर्षणं व्यददात्। राष्ट्रियसभाया ह्यस्तनोपवेशे प्रतिनिधिसभातः ससन्देशं प्राप्तं विलोपितानां जनानाम् अन्वेषण सत्यनिरूपण मेलायोग सम्बद्धम् उनाशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं तृतीयं संशोधन विधेयकं प्रस्तुतमस्ति। राष्ट्रियसभायाः सचिवः डॉ सुरेन्द्र अरियालः विधेयकमिदं प्रास्तोत। एवमेव राष्ट्रियसभायाः उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ महालेखा परीक्षकस्य एकषष्टितमं गत विक्रम वर्षीयं वार्षिकं प्रतिवेदनं प्रास्तोत। उपवेशे सार्वजनिक नीति प्रत्यायोजित विधायन समितेः सभापतिः माया प्रसाद शर्मा कर्णाली प्रदेशस्य भूकम्प प्रभावितानां जनपदानां स्थलगताध्ययनावलोकनानुगमन सम्बद्धं गत विक्रम वर्षीयं प्रतिवेदनं प्रास्तोत। उपवेशे गृहमन्त्री रमेश लेखकः सर्वकारेण विपद्भिः प्रभावितानां गृहपरिवाराणां कृते गत विक्रम वर्षीय स्थायीवासानुदान मापदण्डः स्वीकृते अवस्थायाम् अस्तीति असूचयत। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री पाण्डे पर्यटन क्षेत्रस्य विकासाय विस्ताराय च पर्याप्त वित्तस्य अभावात् कार्यं विधातुं समस्या उत्पन्नास्तीति अवोचत। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का विकास निर्माण योजनासु अन्तर मन्त्रालय सम्बद्ध समस्यानां कारणेन आयोजनानां यथासमयं पूरणस्य अभावे व्ययस्य वर्धनात् अपेक्षित रूपेण कार्याणि न सम्पद्यमानानि सन्तीति अभासत। उपवेशे राष्ट्रियसभायाः अध्यक्ष नारायण प्रसाद दाहाल राष्ट्रपति कार्यालयात् प्राप्तं पत्रम् अश्रावयत। राष्ट्रियसभायाः अपरोपवेशः अस्यैव भाद्रमासस्य द्वितीय दिवसे परश्व रविवासरे दिवा सपादैकवादने वस्ता। संघीय संसदः राज्यस्य निर्देशक सिद्धान्त नीति दायित्वस्य क्रियान्वयनानुगमन मूल्यांकन समितेः सभापतिपदे नेकपा एमाले दलस्य ठाकुर गैरे निर्वाचितोस्ति। एवमेव संसदीय श्रवण समितेः सभापतिपदे नेपाली कांग्रेस दलस्य नेत्री ईश्वरी देवी न्यौपाने निर्वाचिता वर्तते। नवनिर्वाचितौ सभापति गैरे इत्यमुम् न्यौपाने इत्यमुम् च सभामुख देवराज घिमिरे पूर्वेद्यो पदगोपनीयतयो शपथम् अग्राहयत। शपथग्रहणानन्तरं सञ्चारकर्मिभिः तौ समितेः कार्यक्षेत्रानुसारेण उद्देश्य प्राप्तौ प्रयतिष्यते इति प्रतिबद्धतां व्यक्तवन्तौ। द्वयोरपि समित्यो सभापति चयनाय गत बुधवासरे निर्वाचन कार्यक्रमः प्रकाशितः आसीत्। तदानीं प्रतिसमिति एकैकस्यैव प्रत्याशिता पञ्जीकारिता आसीत्। अत ह्य इमौ द्वौ अपि निर्विरोधं निर्वाचितौ स्तः। प्रतिनिधि सभाया राज्य व्यवस्था सुशासन समितौ भ्रष्टाचार निवारण सम्बद्धम् 69-2000 विक्रम वर्षीयम् अधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् आदृत्य विमृष्टम् वर्तते। विमर्शने नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः सूचना प्रविधेः प्राप्ति क्षेत्रम् प्रवर्ध्य भ्रष्टाचारस्य शैली परिवर्तितास्ति इत्यतः सूचना प्राप्तेः अनुरूपम् भ्रष्टाचार निवारणम् विधातुम् बलम् प्रादात्। भ्रष्टाचार सदृशेषु गभीर विषयेषु विधेयक निर्माणे एव पर्याप्तम् न भवति इति भाषमाणः अध्यक्ष प्रचण्ड। भ्रष्टाचार सम्बद्ध सांस्कृतिक सामाजिक सञ्चेतनायाः अभिवृद्धिरपि आवश्यकीय स्थिति उदैरयत। उपवेश्य अधिकार दुरूपयोगानुसन्धानायोगस्य प्रमुख प्रेम कुमार राई पश्चात्तन समये भ्रष्टाचारस्य शैली परिवर्तिता अस्ति इत्यतः तत्सम्बोधयितुमपि अधिनियमस्य संशोधनम् आवश्यकम् अस्तीति समस्पष्टयत्। प्रमुख राई सार्वजनिक सम्पदः अपचलनकर्तारः न केवलम् राष्ट्रसेवक कर्मचारिणः अपितु उत्कोचस्य ग्राहका प्रदातारश्च विदेहे परिदौ आनयनस्य विषयोऽपि अस्मिन् अधिनियमे समाविष्टोऽस्तीति असूचयत्। नेकपा माओवादी केन्द्रस्य स्थायी समिते उपवेशेन आगामिनः आश्विन मासस्य प्रथम सप्ताहे केन्द्रीय समितेः उपवेशस्य आह्वानाय निर्णीतम् वर्तते। पेरिस डाँडावर्तिनी दलस्य मुख्यालये ह्य सम्पन्नेन स्थायी समितेः उपवेशेन आगामिनः भाद्र मासस्य अभ्यन्तरे प्रदेशानाम् जनवर्गीय संघटनानाम् परामर्शदातृ समितिनाम् आयोगस्य च परामर्शोपवेशम् उपविश्य आश्विनस्य प्रथम सप्ताहे केन्द्रीय समितेः उपवेशस्य आह्वानाय निर्णीतम् अस्तीति दलस्य उपाध्यक्ष प्रवक्ता च अग्निप्रसाद सापकोटा असूचयत्। उपवेशेन सर्वेषु प्रदेशेषु केन्द्रीय सदस्यानाम् प्रदेश पदाधिकारिणाम् च मध्ये संयुक्त परामर्शोपवेशस्य आयोजनायै च निर्णीतम् अस्तीति प्रवक्ता सापकोटा अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः काष्ठमण्डपो उपत्यकायाम् डेंगूरोगस्य नियन्त्रणस्य विषये उपत्यकायाः स्थानीय स्तराणाम् जनप्रतिनिधिभिः सह विमृष्टवान् वर्तते। काष्ठमण्डपे भक्तपुरे ललितपुरे च डेंगूरोगेण संक्रान्तानाम् जनानाम् संख्यायाः वर्धनस्य पश्चात् महामारीरूपेण प्रसरणस्य आशंकायाम् नियन्त्रणस्य कृते सहकार्याय मन्त्री पौडेलः य स्थानीय स्तराणाम् जनप्रतिनिधिभिः सह विमृष्टवान्। विमर्शने मन्त्री पौडेलः नीतिगत निर्णयाय अधिकाधिकम् सहकार्याय च मन्त्रालयः तत्परो स्थिति चर्चयन् स्थानीय स्तरैः सह मिलित्वा डेंगूरोगस्य नियन्त्रणम् विधातुम् शक्यते इति अवोचत। श्रावण मासात् प्रसृतस्य डेंगूरोगस्य भाद्राश्विन मासयोः इतोऽपि प्रसरणम् सम्भवतीति विज्ञानम् कथनमुद्धृत्य मन्त्री पौडेलः भयावहावस्थाम् निरोद्धुम् स्थानीय सर्वकाराणाम् सहयोगः अपेक्ष्यते इति अवोचत। इति समाचाराः।